ओम नमो भगवते वासुदेवाय। अथ षोडशोऽध्यायः। सूत उवाच, ततः परीक्षित द्विजवर्य शिक्षया महीं महाभागवतः शशासः। यथा हि सूत्यामभिजातकोविदाः समादिशन् विप्रमहद्गुणस्तथा स उत्तरस्य तनयामुपयेम ऐरावतीम्। जन्मेदयादींश्चतुरस्तस्यामुत्पादयत् सुतान् आजहारास्वमेधान् स्त्रीन् गङ्गायां भूरिदक्षिणान् शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः। निजग्राहौजसा वीरः कलिं दिग्विजये क्वचित् नृपलिङ्गधरं शूद्रं ग्नन्तं गोमिथुनं पता। शौनक उवाच, कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः? नृदेव चिन्नधृक् शूद्र कोसौगां यः पदाहनत्। तत्कथ्यतां महाभाग यदि कृष्णकथाश्रयम्। अथवास्य पदां भोज मकरन्दलिहां सताम्। किमन्यैरसदा लापैरायुषो यदसद्व्ययः? क्षुद्रायुषां नृणामङ्गमर्त्यानामृतमिच्छताम्। इहोपहूतो भगवान् मृत्युः सामित्रकर्मणि। न कश्चिन्म्रियते तावद् यावदास्तैहान्तकः। एतदर्थं हि भगवानाहूतः परमर्षिभिः। अहो नृलोकेऽपि एत हरिलीलामृतं वचः। मन्दस्य मन्दप्रज्ञस्य वयो मन्दायुषश्च वै। निद्रया ह्रियते नक्तं दिवा च व्यर्थकर्मभिः। सूत उवाच, यदा परीक्षित कुरुजाङ्गले शृणोत् कलिं प्रविष्टं निजचक्रवर्तिते निशम्य वार्ता मनतिप्रियां ततः शरासनं संयुगसौण्डिराददे। स्वलङ्कृतं श्याम तुरङ्गयोजितं रथं मृगेन्द्रध्वजमाश्रितः पुरात्। वृतो रथाश्वद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः। भद्राश्वं केतुमालं च भारतं चोत्तरान् कुरून्। किं पुरुषादीनि वर्षाणि विजित्य च गृहे बलिं तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनां। प्रगीयमाणं च यशः कृष्णमाहात्म्यसूचकम्। आत्मानं च परित्रातमश्वत्थाम्नोऽस्त्र तेजसः। स्नेहं च वृष्णिपार्थानां तेषां भक्तिं च केशवे। तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः। महाधनानि वासांसि ददौ हारान् महामनाः। सारथ्यपार्षदसेवनसख्यदौत्य वीरासनानुगमनस्तव न प्रणामान्। स्निग्धेषु पाण्डुषु जगत्प्रणतिं च विष्णोर्भक्तिं करोति नृपतिश्चरणारविन्दे। तस्यैवं वर्तमानस्य पूर्वेषां वृत्तिमन्वहम्। नातिदूरे किलाश्चर्यं यदासीत् तन्निबोध मे। धर्मपदैकेन चरन् विच्छायामुपलभ्यगाम्। पृच्छति स्माश्रुवदनां विवत्सामिव मातरम्। धर्म उवाच, कच्चिद्भद्रेणामयमात्मनस्ते विच्छायासीं लायते षण्मुखेन। आलक्षये भवती मन्तराधिं दूरे बन्धुं शोचसि कञ्चनाम्ब। पादैर्न्यूनं शोचसि मैकपादमात्मानं वा वृषलैर्भोक्ष्यमाणम्। आहो सुरादीन् हृतयज्ञभागान् प्रजा उतस्मिन्मघवत्य वर्षति। अरक्ष्यमाणाः स्त्रियौर्विबालान् शोचस्यथो पुरुषादैरिवार्तान्। वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्र्यान्। किं क्षत्रबन्धून् कलिनोपसृष्टान् राष्ट्राणि वा तैरवरोपितानि। इतस्ततो वा शनपानवासः स्नानव्यवायोन्मुखजीवलोकम्। यद्वाम्बते भूरि भरावतार कृतावतारस्य हरेर्धरित्री। अन्तर्हितस्य स्मरति विसृष्टा कर्माणि निर्वाणविलम्बितानि। इदं ममाचक्ष्वतवाधिमूलं वसुन्धरेयेन विकर्षितासि। कालेन वाते बलिनां बलीयसा सुरार्चितं किं हृतमम्ब सौभगम्। धरणि उवाच, भवानि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि। चतुर्भिर्वर्तसे येन पादैर्लोकसुखावहैः। सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम्। शमोदमस्तप साम्यं तितिक्षोपरतिश्रुतम्। ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजोबलं स्मृतिः। स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च। प्रागल्भ्यं प्रश्रयशीलं सह ओजोबलं भगः। गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिमानो नहङ्कृतिः। एते चान्ये च भगवन्नित्या यत्र महागुणाः। प्रार्थ्या महत्त्वमिच्छद्भिर्न वियन्ति स्म कर्हिचित्। तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम्। शोचामि रहितं लोकं पाप्मना कलिनेक्षितम्। आत्मानं चानुशोचामि भवन्तं चामरोत्तमम्। देवान् पितॄन् ऋषीन् साधून् सर्वान् वर्णान्स्तथाश्रमान्। ब्रह्मादयो बहुतीर्थं यदपाङ्गमोक्ष कामास्तपःसमचरन् भगवत्प्रपन्नाः सा श्रीस्ववासमरविन्दवनं विहाय यत्पादसौभगमलं भजते नुरक्ता तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी त्रीनत्यरोच उपलभ्य ततो विभूतिं लोकान् समां व्यसृजदुत्स्मयतीं तदन्ते यो वै ममाति भरमासुरवंशराज्ञामक्षौहिणी शतमपानुददात्मतन्त्रः त्वां दुःस्थमूनपदमात्मनि पौरुषेण सम्पादयन् यदुषुरम्यमबिभ्रदङ्गम् का वा सहेतपुविरहं पुरुषोत्तमस्य प्रेमावलोकरुचिरस्मितवल्गुजल्पैः स्थैर्यं समानमहरन् मधुमानिनीनां रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्दे पृथ्वीधर्मसंवादो नाम षोडशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणां भोजे रतिः स्यादनपायिनी।